संस्कृतं सम्यक्
धर्मे
वन्दे
संस्कृतं संस्कृतस्य
संस्कृत
प्रसाराय
नैनं
सर्वं ददामि संस्कृतस्य
संस्कृत
तु वन्दे संस्कृतमातरम्
संस्कृतस्य कृते जीवनं संस्कृत
संस्कृतस्य आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरम्
वन्दे संस्कृतमातरम्। हरि ओम्। सर्वेषां नमस्कारः।
नमस्कारः।
श्रूयते?
सम्यक्।
बहुकालात् परं वयं मिलामः। बहवो विघ्नाः, अल्पश्च कालः, श्लोकः अस्ति किल, यथा
अल्पश्च कालः विघ्नाश्च
काल विघ्नाः इति, तथा विशिष्य गतमासत्रये बहु विघ्नाः आसन्, तथापि शतं श्लोकाः सन्ति प्रथमसर्गे। शतं श्लोकान् वयं शीघ्रमेव समापयितुं विशेषप्रयत्नं कुर्मः। अद्य द्व्यशीतितमः श्लोकः। ततः पूर्वं किं जातम् इति द्रष्टव्यं किल। सुतां तदीयां सुरभेः कृत्वा प्रतिनिधिं शुचिः आराधय सपत्नीकः प्रीता कामदुघा हि सा इति वसिष्ठगुरुः दिलीपम् उपदिशन् अस्ति। वस्तुतः अपराधः कुत्र प्रवृत्तः? स्वर्गलोकात् आगमनसमये सुरभेः सुरभिं प्रति एव भवान् अपराधम् आचरितवान्। कम् अपराधम्? पूज्य पूजा किल, उपेक्षां कृतवान्। पूज्यस्य पूजा व्यतिक्रमः भवति चेत् दोषाय, तम् अपराधं भवान् कृतवान्, किन्तु तत्र भवतः दोषः न। किन्तु इदानीं सा च सुरभिः पाताललोके वरुणयज्ञे तिष्ठति, अतः तस्याः अत्र उपस्थितिः नास्ति। तर्हि कथं निर्यातनं पापस्य अपराधस्य चेत्, तस्याः सुता अत्र अस्ति आश्रमे, तां एव स्व तेन भवतः भवान् ऋणात् विमुक्तः भवति इति गुरुः वदति, उक्तवान्। यदा एवम् उक्तवान् नन्दिनी, अत्र कामधेनोः पुत्री नन्दिनी अत्र अस्ति इति एवं वदन्नेव आसीत्, तस्मिन्नेव समये नन्दिनी प्रविष्टा आश्रमं प्रति। तर्हि तद् शुभचिह्नं भवति, शुभसूचकं। वयमपि वदामः शतायुः भोः, भवतः विषये एव चर्चा, भवान् आगतवान्। एवं तु दैवी बहु एषा नन्दिनी, तस्याः प्रवेशेण बहु आनन्दितः गुरुः अपि। श्लोकः एवम् अस्ति, इति वा दिन एवास्य होतुराहुतिसाधनम् अनिन्द्या नन्दिनी नाम
धेनुरावृते वनात्।
इति वादिनः एव होतुः अस्य आहुतिसाधनं नन्दिनी नाम अनिन्द्या धेनुः वनात् आववृते। पदच्छेदं सर्वं न वदन्ती अस्मि, साक्षात् अन्वयम्। इति वादिनः एव, अनेन प्रकारेण वदतः एव, वदन्नासीत् तस्मिन्नेव समये। किं वदन्नासीत्? सुतां तदीयां सुरभेः कृत्वा प्रतिनिधिं शुचिः आराधय सपत्नीकः प्रीता कामदुघा हिता। सा कामदुघा, कामं दोग्भीता, यद् भवतः अभीष्टम् इति तद् प्रयच्छति नन्दिनी इति वादिनः एव वदतः एव यदा सः वदन् आसीत् तस्मिन्नेव क्षणे होतुः कः होता वसिष्ठः यज्ञकर्ता हवनशीलस्य होतुः षष्ठीविभक्ति अत्र होतुः अस्य वसिष्ठमुनेः आहुतिसाधनं हवनसामग्रीणां कारणीभूता साधनभूता नन्दिनी आहुति निमित्त आहुतिनिमित्तं यद्यद्वस्तु अपेक्षितं तत्सर्वमपि कल्पयति नन्दिनी अतः आहुतिसाधनं सा नन्दिनी नाम अनिन्द्या धेनुः अगर्ह्या धेनुः प्रशंसनीया धेनुः निन्दितयोग्या निन्द्या न निन्द्या अनिन्द्या अगर्ह्या सा च धेनुः वनात् आववृते वनात् प्रत्यागता इति सरलः अर्थः अत्र तु सरलः श्लोकः विशेषः कोऽपि नास्ति अतः साक्षात् अग्रिमं श्लोकं प्रति गच्छामः तत्र श्लोकं पठित्वा इति वा दिन एवास्य होतुराहुतिसाधनम् अनिन्द्या
नन्दिनी
अग्रिमं श्लोकं त्रयशीतिः त्रयशीतितमश्लोकः ललाटोदयमाभुग्नं पल्लवस्निग्धपात्रा बिभ्रती श्वेतरोचितं सन्ध्ये शशिनं नवम् अत्र सुन्दर तया उपमा कल्पिता अस्ति कविना सन्ध्या वेला कथं भवति सन्ध्यया सह धेनोः अत्र उपमा कृता सादृश्यं कल्पितं कथं सन्ध्या अनन्तरं धेनुः धेनुः तु काचित् साकारा परिमिता परिमितगात्र परिमितिः भवति सन्ध्या तु अतीव विस्तीर्णा आकाशवत् तिष्ठति तर्हि द्वयोः तुलना कथा कथम् इत्युक्ते तत्र धेनुः पाटलवर्णीय नन्दिनी सन्ध्या अपि पाटला भवति रक्तश्वेतमिश्रितवर्णया पुनः सन्ध्यायाः ललाटे अर्धचन्द्राकारः चन्द्रः यदा उदेति तथा धेनोः ललाटे अपि किञ्चन चिह्नं भवति रोमावलिचिह्नं भवति अतः पुनः सन्ध्यावेला स्निग्धा भवति बहु स्मूत् इति वदामः स्निग्धा डार्क् स्मूत् इति वदन्ति किल तथा रुक्षता न भवति शुष्कता न भवति थिक्नेस् न भवति वायुः अपि मन्दा अनन्तरं किञ्चित् वायौ अपि किञ्चित् स्निग्धता भवति रुक्षम् अथवा शुष्कं न भवति ड्रै न भवति अतः स्निग्धा सन्ध्या अपि स्निग्धा धेनोः धेनुः अपि स्निग्धा तस्याः चर्म पश्यामः चेत् तत्र कान्तिः भवति किल तस्याः चर्मणि नेत्रयोः च एवं मृदु अपि धेनुः अतः सन्ध्यायाः च धेनोः च अत्र तुलना बहु सम्यक् कृता कवि कथमस्ति अन्वयः पल्लवस्निग्धपाटलया पाटला ललाटोदयम् आभुग्नं श्वेतरोमाङ्कुरबिभ्रति नवं शशिनं सन्ध्या इव अग्रे अस्माभिः तत्र अध्याहार नियमेन वनातावृते इति पूर्वतनश्लोकः पदद्वयं स्वीकरणं अध्याहारनियमेन पल्लवस्निग्धपाटला इति धेनोः अपि विशेषणं सन्ध्यायाः अपि विशेषणं पल्लवस्निग्धपाटला पल्लव नाम किं पल्लवः इत्युक्ते पर्ण भवति किल, मृदु पर्ण, पर्ण तत् पर्णस्य यदा मृदुता भवति, अनन्तरम् आर्द्रता अस्ति किल पर्णे, तथा सन्ध्यावेलायामपि भवति पल्लवस्निग्धपाटल पाटला, अनन्तरं पाटलवर्णीया अपि भवति सन्ध्यावेला, तथैव धेनुः अपि किञ्चित् पाटलवर्णीया अस्ति तस्याः त्वक्, अनन्तरं स्निग्धा अपि अस्ति सा धेनु, आर्द्रतायुक्ता करुणामयी पल्लवस्निग्धपाटला श्वेतरक्ता इति वर्णः, ललाटोदयम् आभुग्नं श्वेतरोमाङ्क बिभ्रति, बिभ्रति इत्युक्ते धारयन्ति, ललाटे किं धारयति धेनुः इत्युक्ते श्वेतरोमाङ्क, रोम रोमाणि सन्ति, रोम्नां रोम आवलिः भवति, एवं चन्द्राकाररूपेण श्वेतं भवति नन्दिन्याः ललाटे, तथैव सन्ध्यायाः ललाटे श्वेतचन्द्रः अर्धचन्द्रः शोभते, आभुग्नम् इत्युक्ते वक्रम्, ईषद्वक्रम् क्रेसेण्ट् शेप्, ईषद्वक्रम् श्वेतरोमाङ्कं धवलरोमचिह्नं बिभ्रति धारयन्ति, बिभ्रति धारयन्ति शत्रुप्रयोग, कथं तस्य उपमा नवं शशिनं बिभ्रति सन्ध्या इव, यथा सन्ध्यावेला नवं शशिनम् अर्धचन्द्राकारम् इदमिदानीं वर्धमानं शशिनं चन्द्रं धारयन्ति, यथा सन्ध्या शोभते तथा इयं धेनुः शोभते, तादृशी धेनुः वनात् आववृते, वनात् प्रत्यागता अर्थः। अत्र सामान्य अर्थः कः इत्युक्ते, यथा नवपल्लवसदृशं कोमलम् आर्द्रतायुक्तं श्वेतरक्तं वक्रं च द्वितीयाचन्द्रं, द्वितीयाचन्द्रं भवति किल धारयन्ती सन्ध्या शोभते, तथैव तादृशं ललाटस्थं श्वेतरोमाङ्कं धारयन्ती नन्दिनी वनात् प्रत्यागता शुशुभे शोभते, शोभते स्म, यथा सन्ध्या शोभते तथा धेनुरपि इयं शोभते। श्लोकं पठित्वा अग्रे सरामः। ललाटोदयमाभुग्नं पल्लवस्निग्धपाटला बिभ्रती श्वेतरोमाङ्कं सन्ध्येव शशिनं नवम्, नवं शशि शशिनम्, अतः एव ईषद्वक्रम् इति अस्ति किल, तथैव नवं शशि, नवः शशि इति कविः वर्णयति, पूर्णचन्द्र चन्द्रः भवति चेत् धेनोः ललाटे अपि पूर्णचन्द्र आकारः नास्ति किल, एवं वक्रं चिह्नमेव तिष्ठति, अतः नवं शशिनम् इति उचित तुलना कृता अस्ति कवि। अग्रिमं श्लोकं पश्यामः। कथम् आगच्छति धेनुः, धेनुः यथा यदा प्रविशति वत्सः तां मातरं पश्यति, नन्दिन्याः वत्सः आश्रमे बद्धा वयम् आरम्भे दृष्टवन्तः, द्वितीयपीतप्रतिबद्धवत्साम् इति द्वितीय सर्गे भवति, धेनोः यदा त्यागः कृतः भवति, मोचनं कृतं भवति, तदा तस्याः वत्सस्य क्षीरपानानन्तरं वत्सः बद्धः भवति, तादृशीं धेनुं नन्दिनीं धेनुं सुदक्षिणा पूजयति, अनन्तरं दिलीपः तां धेनुं वनाय नयति, तथा वर्णनं तत्र अस्ति। एवं वत्सः निरीक्षमाणः अस्ति, वत्सस्य दर्शनमात्रेण एव मातुः स्तनात् वर्षति, किं वर्षति, क्षीरं, तेन क्षीरेण भूमिः आश्रमभूमिः एव आर्द्रा भवति इति वर्णनम्। భువం కోష్ణేన కుండోద్ని మేధ్యేనావభృతాదపి ప్రశ్నవ ప్రశ్నవేనాభివర్షంతి వత్తాలోక ప్రవర్తినా. కోష్ణం ఇత్యుక్తే కవోష్ణం, ఈషదుష్ణం. ఈషదుష్ణం భవతి క్షీరం ధేనోః స్తనాత్ యదా ఆగచ్చతి. కోష్ణేన ఈషదుష్ణేన మేధ్యేన, మేధ్యేన ఇత్యుక్తే పవిత్రేణ, ఊతం పవిత్రం మేధ్యం ఇది అమరకోశే, మేధ్యేన పవిత్రేణ. తస్మాదపి కస్య తులనయా అధిక పవిత్రతరం అస్తి ఏతద్ క్షీరం ఇత్యుక్తే అవభృతాదపి, అవభృత స్థానాదపి. అవభృత నామ కిం? ప్రధాన యజ్ఞ సమాపక యజ్ఞ, యజ్ఞస్య ఏవ అంగతయా అపర యజ్ఞ ఇది వక్తుం శక్యం. కథం? యజ్ఞాదేహే న్యూనాధిక దోష శాంతి నిమిత్తక శేష కర్తవ్యః హోమః ఏవ అవభృతం ఇది ఉచ్యతే. యజ్ఞే దోషాః సంజాయంతే, తేషాం దోషాణాం పరిహారార్థం అవభృత హోమ భవతి. తస్య తద్ అంగతయా యద్ స్నానం భవతి తద్ అవభృత స్నానం, తద్ పుణ్యదం భవతి కిల, తస్మాదపి పుణ్యదం ఏతత్ ఇది కవిః వర్ణయతి. యజ్ఞావశేష స్నానం తతోపి పుణ్య పుణ్యకరం ఏతత్ ధేనోః క్షీరం ధేనోః ఆగమనం చ. తర్హి కవోష్ణేన ఈషదుష్ణేన అవభృతాదపి మేధ్యేన అవభృత నానాదపి పవిత్రేణ వత్సాలోక ప్రవర్తినా భువం అభివర్షంతి కుండోని. వత్సస్య ఆలోకనేన, వత్సస్య దర్శనేన ఏవ కిం సంజాయతే క్షీరస్య శ్రవణం. వత్సస్య ప్రదర్శనేన క్షీరం ప్రవహతి స్తనాత్. తర్హి వత్సస్య దర్శనేన ప్రవహత క్షీరం అభిస్యందతే, క్షీరం భూమౌ పతతి స్వతః ప్రయత్నం వినా. క్షీరస్య దోహనం న కరణీయం, స్వతః ఏవ క్షీరం స్రవతి. క్షీరాభిస్యందనేన భువం అభివర్షంతి, భువం భూమి సించంతి. ఆచ ధేనుః తస్యః ఏకం విశేషణం దత్తమస్తి, కుండోద్ని కుండమివ ఊధః ఆపీనం. ఊధః స్తన్యః స్తనం. కుండమివ ఊధః యథా బృహత్ ఏక ఘటః ఇవ తస్య ఊధః, తస్యః ఊధః ఉధస్ నపుంసకలింగపదం. కుండోధ్నీ అత్ర బహువ్రీహి సమాసః అస్తి ఇతి కారణేన అంతే కుండ కుండమివ ఊధః యస్యాః సా కుండోధ్నీ ఇతి స్త్రీ ప్రత్యయః భవతి. నో చేత్ ఊధస్సితి తు నపుంసకలింగపదమే. కుండోధ్నీ సా నందినీ వనాత్ ఆవృతే. పీవరస్తనధారిణి ఇది అర్థ. కుండోధ్ని నామ స్థూలస్తనధారిణి. యదా క్షీరేణ భరితం భవతి, పూర్ణం భవతి, తర్హి తీవరం భవతి, స్థూలం భవతి. తాదృశీ నందిని ఆశ్రమం ప్రవిష్టా. కోష్ణేన అవభృతాదపి మేధ్యేన ఈషదుష్ణ క్షీరం. తచ్చ క్షీరం కథమస్తి, కీదృశం పవిత్రమస్తి. మేధ్యం ఇత్యుక్తే పవిత్రం. అవభృతాదపి పవిత్రం, అవభృత స్నానాదపి పవిత్రం క్షీరం. వత్సాలోక ప్రవర్తినా తేన క్షీరేణ భువం అభివర్షంతి. వత్సస్య ఆలోకనేన యత్ క్షీరం స్వతః ఏవ ప్రవహతి తేన క్షీరేణ ప్రశ్నవేన, తేన క్షీరేణ భూమం అభివర్షంతి భూమిం ఆర్ద్రయంతి భూమిం సించంతి, సించంతి తా धेनुः कीदृशी धेनुः कुण्डोध्वी कुण्डमिव ऊढा यस्याः पीवरं तस्याः स्तनं तादृशी धेनुः वनात् प्रत्यागता. श्लोकं पठामः सकृत्. भुवं कोष्णेन कुण्डोध्वी मेध्येनावभृतादपि प्रश्नेनाभिमर्षन्ति सालोकेन क्षीरं स्वतः प्रवर्तते तादृशेन प्रश्नवेन तादृशेन क्षीरेण इति अर्थः. अग्रिमं पञ्चाशीतिः तमः श्लोकः. रजः कणैर्पुरोद्धूतैर्गात्रमन्तिकात् तीर्थाभिषेकजां शुद्धिम् आदधानामहीक्षितः. एतस्य अन्वयः पुरोद्धूतैः अन्तिकात् गात्रं स्पृशद्भिः रजःकणैः महीक्षितः तीर्थाभिषेकजां शुद्धिम् आदधाना नन्दिनी वनात् आववृते इति अध्याहारः. यदा धेनुः आश्रमं प्रविशति तस्याः पादतले या धूलिः अस्ति सा धूलिः दयते तेन खुराणां न्यासेन खुरोद्धूतैः खुरैः उत्थापिता धूलिः तैः धूलिकणैः अन्तिकात् गात्रं स्पृशद्भिः सा च धूलिः धेनु दिलीपस्य गात्रं स्पृशति किल समीपे एव अस्ति इति कारणेन अन्तिकात् समीपे गात्रं स्पृशद्भिः दिलीपस्य गात्रं स्पृष्ट्वा किं भवति तेन रजःकणैः तैः रजःकणैः तैः धूलिकणैः महीक्षितः दिलीपस्य राज्ञः तीर्थाभिषेकतां शुद्धिम् आदधाना राज्ञः शुद्धिं कल्पयन्ती एषा नन्दिनी प्रविष्टवती. महाराजस्य धूलिकणेन धूलिकणानां स्नानेन एव शुद्धिः भवति. कारणं नन्दिन्याः पुरस्पर्शनेन पवित्रा जाता धूलिः तस्याः धूल्याः तेषां पांसूनां तासां तेषां धूलिकणानां स्पर्शनेन अभिषेकः जातः राज्ञः तेन सह पवित्रः जातः अस्ति इति वर्णनम्. खुरोद्धूतैः खुरः नाम धेनोः पादतलं भवति किल शफः इति वदति. खुरैः उद्धूतैः उत्थापितैः अन्तिकात् समीपे गात्रं शरीरं स्पृशद्भिः स्पर्शं कुर्वद्भिः स्पृशद्भिः रजःकणैः स्पर्शं कुर्वद्भिः धूलिलवैः धूलिकणैः महीक्षितः तीर्थाभिषेकजां शुद्धिम् आदधाना. महीक्षित् महीं क्षियति इति क्षियते इति महीक्षित् भूपालस्य दिलीपस्य महीक्षितः षष्ठी महीक्षित् इति प्रथमं दिलीपस्य तीर्थाभिषेकजां शुद्धिम् तीर्थे तीर्थस्थले स्नानं कुर्मः चेत् या शुद्धिः लभ्यते तादृशीं शुद्धिम् अत्र नन्दिनी कल्पयति. कथं कल्पयति इत्युक्ते धूलिकणानाम् अभिषेकेण. कस्य अभिषेकः? महाराजस्य तीर्थाभिषेकजां शुद्धिं पवित्रताम् आदधाना कुर्वाणा शुद्धिं कल्पयन्ती सा नन्दिनी वनात् आववृते वनात् आगता. पुनः एकवारं श्लोकस्य अर्थं सरलार्थं पश्यामः. पुरोद्धूतैः अन्तिकात् गात्रं स्पृशद्भिः रजःकणैः महीक्षितः तीर्थाभिषेकजां शुद्धिं वा दधाना नन्दिनी मनात् आववृते. कुरोत्थापितैः धूलिकणैः समीपे वर्तमानस्य अन्तिकात् समीपे विद्यमानस्य राज्ञः दिलीपस्य गात्रस्पर्शं कुर्वद्भिः यथा तीर्थाभिषेकेण शुद्धिं शुद्धिः भवति तथैव शुद्धिं कल्पयन्ती नन्दिनी मनात् प्रत्यागता इति अर्थः. श्लोकं पठित्वा अग्रे सरामः. गात्रमन्तिकात् तीर्थाभिषेकजां शुद्धिम् आदधाना महीक्षितः. अग्रिमं पश्यामः. षडशीतितमः श्लोकः. तां पुण्यदर्शनां दृष्ट्वा निमित्तज्ञस्तपोनिधिः याज्यमाशंसिता वन्ध्यप्रार्थनं पुनरब्रवीत्. वसिष्ठमुनिः तां धेनुं दृष्ट्वा पुनः अब्रवीत्. किम् अब्रवीत्? श्लोकं पश्यामः. निमित्तज्ञः तपोनिधिः पुण्यदर्शनां तां दृष्ट्वा आशंसितावन्ध्यप्रार्थनं याज्यं पुनः अब्रवीत्. निमित्तज्ञः निमित्तं जानाति इति निमित्तज्ञः. शकुनज्ञः शुभशकुनम् अपशकुनं सर्वं सः सम्यक् जानाति. निमित्तज्ञः शकुनज्ञः. रामायणे अपि शकुनज्ञा भवति सीतादेवी. त्रिजटा इति विभीषणसुता तां कथयति स्वप्ने अहमेवमेवं दृष्टवती. अनन्तरं सीतायाः अपि वामने नेत्रस्य स्फुरणं वामस्कन्धस्य स्फुरणम् इत्यादिकं शकुनशास्त्रं निमित्तशास्त्रम् इति वदन्ति. शकुनशास्त्रम् इत्युक्ते कदाचित् पक्षीणां पूजनं, केषाञ्चन मृगाणां रुदनम् अपशकुनं सूचयति. तथैव पक्षिणः पूजनमपि केषाञ्चन शुभसूचकानि भवन्ति, कानिचन कानिचन अशुभम् अपि सूचयन्ति. तथा एते निमित्तज्ञाः भवन्ति ऋषयः. वसिष्ठमुनिः अपि निमित्तज्ञः शकुनज्ञः तपोनिधिः तपोधनः वसिष्ठः पुण्यदर्शनां तां. यस्याः दर्शनमेव पुण्यं भवति किल. पुण्यं दर्शनं यस्याः तां नन्दिनी दृष्ट्वा आलोक्य आशंसितावन्ध्यप्रार्थनं याज्यं पुनः अब्रवीत्. आशंसितावन्ध्यप्रार्थनं मनोरथे अमोघप्रार्थनं यस्य सः आशंसितावन्ध्यप्रार्थनः दिलीपः तम् यस्य प्रार्थना अमोघा भवति, सफला भवति इति अर्थः. आशंसित अवन्ध्यप्रार्थनम्. वन्ध्यम् इत्युक्ते विफलम्, अवन्ध्यं सफलं. सफलप्रार्थना यस्य सः अवन्ध्यप्रार्थनः इति दिलीपस्य विशेषणम्. आशंसितावन्ध्यप्रार्थनं दिलीपम् अब्रवी. पुनः कीदृशं दिलीपं? याज्यं याजयितुं योग्यं पार्थिवम्. इदानीं एक व्रतधारणं कृतवान् कर्तुं वसिष्ठ महर्षिः दिलीपं प्रेरयति। तर्हि सः योग्यः अस्ति वा न वा एतादृशव्रतधारणे यागकरणे चेत् आम् योग्यः, सः याज्यं याजयितुं योग्यं पार्थिवं पृथिवीपालं दिलीपं पुनरपि अब्रवीत्, पुनरपि वचनम् उक्तवान्। तस्य पदस्य किञ्चित् विवरणं ज्ञातव्यं भवति। आशंसितावन्ध्यप्रार्थनः, कथम् एतत् पदम् आशंसितम् इत्युक्ते मनोरथः, तद् सफलं प्रार्थनं यस्य सः सफलप्रार्थनः, तं सफलप्रार्थनं, मनोरथे सफलप्रार्थनं यस्य आशंसितावन्ध्यप्रार्थनं तं दिलीपम्, अवन्ध्यमनोरथप्रार्थनं दिलीपं याजयितुं योग्यं याज्यं पार्थिवं दिलीपं पुनरपि अब्रवीत्। यज्ञं कारयितुं योग्यः सः दिलीपः, यज्ञकारयिता तु वसिष्ठः, यज्ञं कारयितुं योग्यः जनः अत्र कः? दिलीपः महाराजः। पुनरपि वचनम् अब्रवीत्, पूर्वम् उक्तवान् नन्दिन्याः सेवा करणीया इति परिहारः अपि उक्तवान् गुरुः। पुनरपि इदानीं नन्दिन्याः प्रवेशः यदा जातः तदा पुनरपि वचनं भूयोऽपि उवाच उक्तवान्। श्लोकं पठामः। तां पुण्यदर्शनां दृष्ट्वा वन्ध्यप्रार्थनं पुनरब्रवीत्। अत्र कस्य कस्य किं विशेषणम् इति पश्यामः। तां नन्दिनी पुण्यदर्शनां, तां पुण्यं दर्शनं यस्याः सा पुण्यदर्शना, तां पुण्यदर्शनां तां नन्दिनी दृष्ट्वा अवलोक्य। वसिष्ठगुरोः पदद्वयमस्ति, निमित्तज्ञः तपोनिधिः। वसिष्ठः निमित्तं जानाति, शकुनं जानाति इति निमित्तज्ञः, तपो तपः एव निधिः यस्य तपोनिधिः, सः वसिष्ठः अब्रवीत्, पुनरपि अब्रवीत्। कम् अब्रवीत्? दिलीपम् अब्रवीत्। अत्र दिलीपः इति पदं न प्रयुक्तं, पदद्वयं तस्य कृते प्रयुक्तं। किम्? याज्यं दिलीपम्, आशंसितावन्ध्यप्रार्थनं दिलीपम्, याजयितुं योग्यः दिलीपः तं याज्यं दिलीपम्, आशंसितावन्ध्यप्रार्थनं, यस्य प्रार्थना सफला भवति तादृशं दिलीपं, यस्य मनोरथः यदस्ति तत् प्रार्थना, सा च प्रार्थना अमोघा भवेत् तादृशः, तादृशं दिलीपम्। पुनरपि उवाच अब्रवीत्। किम् अब्रवीत्? शुभवार्तामेव अब्रवीत्। भवतः मनोकामना, भवतः मनोरथः शीघ्रमेव पूर्णः भवेत् भवति इति वदति। अदूरवर्तिनीं सिद्धिं राजन् विगणयात् मनः, उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यत्। धेनोः नामनि उक्ते सत्येव, यदा धेनोः नामोच्चारणं कृतं तत्क्षणे एव सा प्रविष्टा किल, तदेव शुभसूचकम् इति। शुभ सूचनां एषा घटना ददाति। तर्हि किं वदति? हे राजन् इति संबोधनम्। अदूरवर्तिनीं सिद्धिं राजन्, हे राजन् आत्मनः सिद्धिम् अदूरवर्तिनीं विगणय। आत्मनः स्वस्य सिद्धिं, कार्यसिद्धिं, यन्निमित्तं भवान् अत्र आगतवान् तत् कार्यसाफल्यं, कार्यप्राप्तिः अदूरवर्तिनीं विगणय। शीघ्रभाविनी, शीघ्रमेव तद्भवति, शीघ्रभाविनी इत्युक्ते इदानीं समीप भविष्यत् काले एव शीघ्रमेव सा घटना भवति. अतः अदूरवर्तिनीं विगणय भावय विद्धि जानीहि यत् इयं कल्याणी. केन कारणेन अहम् एवं वदामि इति वसिष्ठः वदति यत् यस्मात् इयम् एषा कल्याणी मङ्गलमूर्तिः एषा धेनुः नाम्नि कीर्तिते एव उपस्थिता. एतस्याः यस्मिन् क्षणे नाम उच्चारणं कृतं. कदा कृतं? यदा वसिष्ठः दिलीपं वदन् आसीत् किल सुतान्तदीयां सुरभेः कृत्वा प्रतिनिधिं शुचिः आराधय स पत्नीकः प्रीता कामदुघाहिता इति नामोच्चारणं कृतं तदा नन्दिनी धेनुः वनातावृते इति श्लोकः अग्रिमम्. अतः तस्मिन् क्षणे एव मङ्गलमूर्तिः इयं धेनुः आश्रमं प्रविष्टा अस्ति. अतः भवतः कार्यं सफलम् इति एव भवान् जानातु इति वदति. सरलः श्लोकः एव. श्लोकं पठामः. अदूरवर्तिनीं सिद्धिं राजन् विगणयात् मनः उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यत् अष्टाशीतिः तमः श्लोकः. वन्यवृत्तिरिमां शश्वद् आत्मानुगमनेन गाम् विद्यामभ्यसनेनेव प्रसादयितुमर्हसि. पूर्वम् एतस्याः सेवां कुरु इति गुरुः उक्तवान् आसीत्. आराधय सुतां तदीयाम् इति श्लोकः किल पूर्वम्. इदानीं कथं तस्य आराधनं करणीयं, कियत्पर्यन्तं, कियत्कालम् इति वदति. किञ्चित् वन्यवृत्तिरिमां शश्वत् आत्मानुगमनेन गां विद्याम् अभ्यसनेनैव प्रसादयितुम् अर्हति. वन्यवृत्तिः सन् भवान् वन्यवृत्तिः भवतु. वन्य इत्युक्ते वन्यं, वने भवं वन्यम्. वने किं किं भवति? आहारः कन्दमूलादिकं यस्य आहारः तथा भूतं सन् वन्यवृत्तिः. सन् वन्यवृत्तिः भूत्वा इमां गाम् एतां धेनुं शश्वत्. शश्वत् इत्युक्ते शाश्वतकालः इति न, अत्र निरन्तरम्. एतस्याः प्रसन्नता यावत्पर्यन्तं भवेत् तावत्पर्यन्तम् इति अर्थः. यावत् नन्दिनी प्रसीदति तावत् निरन्तरम् इति अर्थः. नन्दिन्याः तोषणपर्यन्तम् कथं सेवनीयं, कथं सा धेनुः सेवनीया? आत्मानुगमनेन, आत्मनः अनुसरणेन, तस्याः अनुसरणं कर्तव्यम्. तस्य एक उपमा दत्ता अस्ति कविना. कथम्? अभ्यसनेन विद्याम् इव. विद्या कदा हस्तगता भवति? निरन्तर अभ्यासे. तथैव धेनुः कदा प्रसन्ना भवति? निरन्तरसेवनेन. यावत्पर्यन्तम् एषा न प्रसीदति तावत्पर्यन्तम् एतस्याः सेवां कुरु. यथा निरन्तर अभ्यासेन विद्या हृदयङ्गमा भवति, विद्या हस्तगता भवति, तथैव निरन्तरसेवनेन धेनुः अपि प्रसन्ना भवेत्. अभ्यसनेन विद्यां प्रसादयितुम् अर्हति. अभ्यसनेन विद्यामिव. विद्या प्रसीदति. एषः बहु अभ्यासं करोति इति विद्या अथवा यः अधीते, यः पठति, विद्या तम् अनुगृह्णाति किल, तथा एषा धेनुः भवन्तम् अनुगृह्णीयात्. तावत्पर्यन्तम् एतस्याः सेवां कुरु. एतां धेनुं ప్రసాదయితుం అర్హతి. మనోరథ ప్రాప్తి పర్యంతం ఏతాం తోషయితుం త్వం అర్హతి ఇది ఋషి వదతి. పునః ఏకవారం అర్థం పశ్యామః. వన్యవృత్తి తన్ కందమూలాదికం యస్య ఆహారః భవతి తా తథాభూతః త్వం వన్యవృత్తి భూత్వా ఇమాం గాం ఏతాం ధేనుం శశ్వత్ నిరంతరం ప్రసాదోదయ పర్యంతం ఆత్మానుగమనేన ఆత్మనః అనుసరణేన స్వయం తస్యః అనుసరణం కుర్వన్ అభ్యసనేన విద్యామివ యథా అభ్యాసేన విద్యా హృదయంగమా భవతి తథా ధేనుం ప్రసాదయితుం అర్హతి ఇమాం ధేనుం తోషయితుం అర్హతి. శ్లోకం పశ్యామః పఠామః. వన్యవృత్తిరిమాం శశ్వత్ ఆత్మానుగమనేన గాం విద్యామభ్యసనేనేవ ప్రసాదయితుమర్హసి. అష్టాశీతిః శ్లోకః అపి సమాప్తః. అపరాన్ శ్లోకాన్ వయం అగ్రే పశ్యామః. అద్య కేనాపి సిద్ధతా కృతా చేత్ వక్తుమర్హంతి.